त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणं त्रिशाखैर्बिल्वपत्रैश्च अच्चित्रै कोमलैशुभैः शिवपूजां करिष्यामि एकबिल्वं शिवार्पणं कोटिकन्या महादानं तिलपर्वतकोटयः काञ्चनं शीलदानेन एकबिल्वं शिवार्पणं काशीक्षेत्रनिवासं च कालभैरवदर्शनं प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् इन्दुवारे व्रतं चित्वा निराहारो महेश्वरा नक्तं हौष्यामि देवेशा एकबिल्वं शिवार्पणम् रामलिङ्गप्रतिष्ठां च वैवाहिककृतं तदा तटाकादी च सन्तानम् एकबिल्वं शिवार्पणम् अखण्डबिल्वपत्रं च अयुतं शिवपूजनं कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् उमया सह देवेश नन्दिवाहनमेव च भस्मलेपन सर्वाङ्गा एकबिल्वं शिवार्पणम् सालिग्रामेषु सहस्रेषु विप्रान्नं शतकोटिकं यज्ञकोटिसहस्रैश्च एकबिल्वं शिवार्पणम् दन्त्यश्च कोटिदानानि अश्वमेधशतानि च कोटिकन्या महादानम् एकबिल्वं शिवार्पणम् बिल्वानां दर्शनं पुण्य स्पर्शनं पापनाशनम् अघोरपापसंहारम् एकबिल्वं शिवार्पणम् सहस्रवेदपाठेषु ब्रह्मस्थानशतेन च अनेकव्रतकोटीनाम् एकबिल्वं शिवार्पणम् अन्नदानसहस्रेषु सहस्रोपनयनं तथा अनेक जन्म पापानि एकबिल्वं शिवार्पणम् बिल्वाष्टकं इदं पुण्यं यः पठेच्चिव सन्निधौ शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम्।